जातु यम यातना भवति ते पयः पानातः
पठति सू